Ok.
क्रीडोनुसम्परिभ्यश्च इति सूत्रम् अस्माभिः अध्येतव्यम्। क्रीडोनुसम्परिभ्यश्च इत्यत्र पदत्रयं विद्यते, क्रीडः, अनुसम्परिभ्यः च। इदानीम् अनुसम्परिभ्यः इत्युक्ते किम्? अनुश्च सं च परिश्च तेषाम् अनुसम्परयः, तेभ्यः अनुसम्परिभ्यः। इदानीं क्रीडः इति पञ्चम्यन्तम्, अनुसम्परिभ्यः इति पञ्चम्यन्तम्, च इत्यनेन अनुदात्तगीत आत्मनेपदम् इत्यस्मात् सूत्रात् आत्मनेपदम् इति स्वीक्रियते। इदानीम् अनुसंपरि च इत्यनेन आङ् इति अनुकृष्यते, तत्र अनुसंपरि आङ् उपसर्गपूर्वक क्रीड् धातोः आत्मनेपदं भवति इति सूत्रस्य अर्थः। क्रीडृविहारे इति धातुः स्वभावतः परस्मैपदी अस्ति, परन्तु एतेषाम् उपसर्गाणां योगेन आत्मनेपदं भवति। अनुक्रीडते, अनुक्रीडते इत्यत्र अनुपसर्गः अस्ति, अतः क्रीडोनुसम्परिभ्यश्च इत्यनेन इत्यनेन क्रीडोनुसम्परिभ्यश्च इत्यनेन आत्मनेपदं भवति। सङ्क्रीडते इति द्वितीयम् उदाहरणम्, परिक्रीडते इति तृतीयम्, आक्रीडते इति चतुर्थम्। अनोः कर्मप्रवचनीयान् न उपसर्गेण समा साहचर्यात्। अत्र किम् उच्यते, अत्र कर्मप्रवचनीयाः कर्मप्रवचनीयाः इति अनु इति कर्म अनु इत्यस्य कर्मप्रवचनीयसंज्ञा अस्ति। इदानीं प्रश्नः क्रियते, पूर्वपक्षं क्रियते इत्युक्ते अनु इति कर्मप्रवचनीयस्य ग्रहणम् अस्मिन् सूत्रे कर्तुं शक्यते वा इति प्रश्नः। तदा उच्यते उत्तरम्, अनोः कर्मप्रवचनीयान्न। यदि अनु कर्मप्रवचनीयसंज्ञां प्राप्नोति तर्हि अनु कर्मप्रवचनीयस्य क्रीड् धातोः आत्मनेपदं न भवति। अत्र अनु इति उपसर्गमेव स्वीकर्तव्यम् इति उच्यते। कथं ज्ञातं भवद्भिः अनु उपसर्गः एव स्वीकर्तव्यः न तु कर्मप्रवचनीयः इति द्वितीयः प्रश्नः। तदा उच्यते तत् सहचरित असहचरितयोः सहचरितस्यैव ग्रहणम् इति परिभाषा विद्यते। सहचरित असहचरितयोः सहचरितस्यैव ग्रहणम्। इदानीं क्रीडोनुसम्परिभ्यश्च इत्यत्र अनु सम्परि इत्येते उपसर्गाः सन्ति। सम्परि इति तु उपसर्गाः, आङ् इत्यपि उपसर्गः, एवम् उपसर्गस्य साहचर्यात् अनु इत्यपि उपसर्गः एव। अत्र उपसर्गपदं यद्यपि नास्ति तथापि अनु इत्यस्य उपसर्गमेव स्वीकर्तव्यम् इति अत्र उत्तरम्। तत्र परिभाषा सहचरित असहचरितयोः सहचरितस्यैव ग्रहणम् इति उदाहरणम्। माणवकम् अनुक्रीडति इति द्वितीयम् उदाहरणम् माणवकम् अनुक्रीडति इत्यत्र तेन सह इत्यर्थः इदानीं माणवकेन सह क्रीडति इत्यर्थः अत्र अनु इति अनु इति पदम् कर्मप्रवचनीय संज्ञां प्राप्तः अतः तृतीयार्थः विहितः अत्र तृतीयार्थे इति एकं सूत्रं विद्यते तत्र अष्टाध्याय्यां तृतीयार्थे इति सूत्रं विद्यते तृतीयार्थे हीने इत्यादि सूत्रं विद्यते तृतीय तृतीयार्थे इति सूत्रं विद्यते तृतीयार्थे इत्यस्य कर्मप्रवचनीयसंज्ञा अस्ति अनु इत्यस्य अतः माणवकम् अनुक्रीडते इत्यत्र अनु इत्यस्य कर्मप्रवचनीयसंज्ञा अस्ति मानवकम् अनुक्रीडति इत्यत्र अनु इत्यस्य कर्मप्रवचनीयसंज्ञा अस्ति उपसर्गसंज्ञा नास्ति अतः परस्मैपदम् एव न तु आत्मनेपदम् इति नियमः इदानीं प्रश्नः जायते अस्तु तर्हि अनु इत्यस्य कर्मप्रवचनीयसंज्ञा अपि भवतु उपसर्गसंज्ञा अपि भवतु उभयसंज्ञा भवतु किम् अनेन इति उच्यते तदा उच्यते आकडारादेकासंज्ञा इति सूत्रं सूत्रस्य अधिकारे एते सूत्राणि भवन्ति एकसंज्ञा एक तत्र यदा उपसर्गसंज्ञा भवति तदा कर्मप्रवचनसंज्ञा न भवति यदा कर्मप्रवचनीयसंज्ञा भवति उपसर्गसंज्ञा न भवति अतः एका एव संज्ञा प्रवर्तते फलतः माणवकम् अनुक्रीडति इत्येव भवति न तु अनुक्रीडते इति अवगतं वा एवम् अग्रिमवार्तिकं विद्यते आगमे क्षमायाम् आङ् उपसर्गसहित गम् धातोः क्षमायाम् इत्युक्ते सहन क्षमा नाम सहनशीलता आगमे क्षमायां सहनशीलता अर्थमे सहनशीलता अर्थे सहनशीलता इत्यर्थे आ आंग पूर्वक गम धातोः आत्प्रेयपदं भवति अत्र न्यन्तस्येदं ग्रहणं कौमुदीकारः वदति अत्र ण्यन्त पदानामेव स्वीकारः कर्तव्यः यतोहि तत्र उदाहरणं विद्यते आगमयस्व तावत् आगमयस्व तावत् इत्युक्ते मा त्वरिष्ठाः तत्र त्वरा न कर्तव्या आगमयस्व तावत् इति आगमयस्व इति ण्यन्तधातुः अस्ति ण्यन्तगम् धातुः इदानीं गच्छति गमयति गच्छति इत्यत्र गम् धातुः शुद्धधातुः गमयति इत्यत्र ण्यन्तधातुः सनाद्यन्त सनाद्यन्ताः धातवः इत्यनेन धातुसंज्ञा आगच्छति तत्र किं भवति गम् धातोः सत्यापपाशरूप इति एकं सूत्रं विद्यते कुत्र विद्यते इति जानन्ति वा चुरादिप्रकरणे प्रथमसूत्रं तत्र कौमुदी मध्ये पेज् 385 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वच वर्मवर्णचूर्णचुरादिभ्यो निच् इति गम् धातोः अत्र तत्र चुरादिगणः आकृतिगणः अस्ति अतः ण्यन्त तत् अत्र णिच् प्राप्तिः भवति तत्र गम् धातोः आ गम् इत्यस्य णिच् भवति चेत् गम् इत्यस्य गमि इति भवति गमि इति धातुः इदानीम् आगमयस्व इत्यत्र गम् धातुः नास्ति गम् धातुः शुद्धधातुः णिच् प्रत्यये सति गमि इति भवति इदानीं प्रत्ययान्तधातुः सम्पन्नः प्रत्ययान्तधातुः इत्युक्ते सनाद्यन्ताः दातवः इत्यनेनैव धातुसंज्ञा न तु भूवादयो दातवः इत्यनेन धातुसंज्ञा अतः आगमि इति धातोः अनन्तरं सर्वं समानं लट्लकारः शप् तिप् लकारस्य लादेशः त आताम् झ इत्यत्र लादेशः एवं सर्वं कृत्वा अत्र टेः एत्वं कृत्वा आगमयते इति रूपं प्राप्नोति आगमयते इति लट्लकारे रूपं लोट्लकारे तु आगमयस्व इति भवति इदानीं शिक्षेर्जि एवं ण्यन्तस्यैव ग्रहणम् अत्र न तु शुद्धधातोः इति आगमे क्षमायाम् इत्यस्य इत्यस्मिन् वार्तिके इदानीं शिक्षेर्जिज्ञासाय इदानीं शिक्षधातुः शिक्षते इति न धातुः तत्र इदानीम् अत्र शकलृशक्तौ इति धातुः स्वीकर्तव्यः शकलृशक्तौ इति इत्यस्मात् धातोः किं भवति शकलृशक्तौ इत्यस्मात् धातोः सन् प्रत्ययः भवति एवं शक् सन् प्रत्ययस्य सा इति अवशिष्टः भवति शक् सन् इति भवति इदानीं सनिमीमाघु रभ लभ शक पथ पदाम् अच इस् इति सूत्रं विद्यते कुत्र विद्यते सन् प्रकरणे तत्र सनिमी माघु इति सूत्रं लब्धं वा सन् प्रकरणे सनिमी माघु हा 454 इत्यत्र तत्तु सनीवन्तर्ध इति अस्ति किल सनिमी माघु इति अस्ति पेज 459 हा सनिमी माघु रभलभ शक 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 धातुः तत्र विद्यते शक पथ पदाम अच इस एवं शक सा इति स्थिते सनिमी माघु इति सूत्रात् इस आदेशः भवति एवं इस आदेशः शक इति धातुः इस आदेशः इदानीं अत्र अन्त्यात् परः इत्युक्ते शी शी सक इति भवति इदानीं इस् आदेशः कुत्र भवति इत्युक्ते शकारे अकारः विद्यते शकारे अकारः विद्यते अकारस्य स्थाने इस् आदेशः भवति एवं शिसक शिशक स इति भवति कोसंयोगाद्योरन्ते च इति सूत्रं विद्यते एतेन सकारस्य लोपः भवति एवं शिक् शिक् इति भवति इदानीं शिक् इत्यस्य संज्ञोः इति द्वित्वं संज्ञोः इति द्वित्वं तदनन्तरम् अत्र लोपोऽभ्यासस्य इति अभ्यासलोपः किं भवति शिक् स इति भवति इदानीं ककारे परे सकारः विद्यते तर्हि आदेशप्रत्ययोः इति सूत्रेण शिक्ष इति धातुः भवति इदानीं शिक्ष इत्यनन्तरं टे शप् इत्यादि कृत्वा शिक्षते शिक्षते इति भवति एवं धनुषि शिक्षते इति उदाहरणम् अत्र शिक्षेर् जिज्ञासायाम् इति वार्तिकेन जिज्ञासा अर्थः इत्युक्ते धनुर्विद्या सम्पादनार्थं जिज्ञासा विद्यते इति अर्थः धनुर्विद्या ज्ञानार्थं सः इच्छति इत्यर्थः तादृशे अर्थे इत्युक्ते जिज्ञासायाम् अर्थे एव शकलृ शक्तौ इति अस्मात् धातोः किं भवति आत्मनेपदं भवति शिक्षविद्योपादाने इति धातुः अपि अस्ति तेनापि शिक्षते इति रूपं प्राप्नोति परन्तु शिक्षविद्योपादाने इत्यस्य ग्रहणम् अस्माभिः न कर्तव्यम् यतोहि शिक्षा विद्योपादाने इत्यत्र अनुदात्त इत् भवति अनुदात्त इत् अस्ति चेत् शिक्षते इति स्वयमेव सिद्धिः अत्र सूत्रे शिक्षेर्जिज्ञासायामिति किमर्थं पुनः वचनं तेन ज्ञायते शिक्षविद्योपादाने इति धातोः ग्रहणं न अस्माभिः शकलृ शक्तौ इति धातोः एव ग्रहणं कर्तव्यम् अतः धनुषि शिक्षते इति रूपं भवति अवगतं वा पद्मामि गिरिजामि शिक्षेर् जिज्ञासायाम् अवगतं वा इल्लया इदानीं शिक्ष धातुः अस्ति अस्माकं धातुपाठे शिक्ष विद्योपादाने इति धातुः अस्ति इदानीं शकलृ शक्तौ इति धातुः अस्ति शक என்ன புரியல உங்களுக்கு லெசன் குள்ளையா கிரீடோன் இல்ல கவலைப்படாதீங்க கிரீடோனு சம்பரிபியச்சா இத்யத்ர வார்த்திகம் அஸ்ம ஆ சோ இப்போ ஒரு வார்த்திகத்தை நம்ம படிச்சுட்டு இருக்கோம் அவ்வளவுதான் சிக்ஷேர் ஜிக்யாசாயாம்னு ஒரு வார்த்திகம் அதுக்கு இப்ப அத புரிஞ்சுக்கலாம் இப்ப சிக்ஷேர் ஜிக்யாசாயாம் இத்யத்ர அஸ்மாபிஹி ஷகல்ர் ஷக்தௌ இதி தாதுஹு ஸ்வீகர்த்தவ்யஹ ஷக்ல்ர் ஷக்தௌ இத்யத்ர லிருதித் அஸ்தி அத்ர ஷக் இதி பவதி ஷக் இத்யஸ்ய சன் பிரத்யயஹ யோஜனீயஹ தாதோஹ் கர்மணஹ சமான கர்த்ருகாத் இச்சாயாம் வா இதி சன் பிரத்யயஹ இதி சூத்ரேண சன் பிரத்யயஹ தத்ர சன் பிரத்யயே சதி இஸ் ஆதேசஹ கர்த்தவ்யஹ இஸ் ஆதேசஹ கதம் ஆகச்சதி இத்யுக்தே சனிமீ மாகு ரப ரப இத்யஸ்ய ஷக இதி தாதுஹ சங்கிரஹீதா வித்யதே தத்ர ஷக இத்யஸ்ய அகாரஸ்ய ஸ்தானே இஸ் ஆதேசஹ ஏவம் கிம் பவதி ஷிஸ்க் ஷீஸ்க் ஷீஸ்க் ச இதி அஸ்தி இதானிம் ஸ்கோஸ் ஷீஸ்க் ச சம்ப்ரத்யா ஸ்கோஸ் சயோகாத்யோரந்தே ச இத்யனேன ஷிஸக் இத்யத்ர சகாரஹ யஹ அஸ்தி தஸ்ய லோபஹ இதானிம் ஷிக் இதி அஸ்தி சன்யங்கோஹோ இதி த்வித்வம் சன்யங்கோஹோ இதி த்வித்வம் அத்ர லோபோ அபியாசஸ்ய இதி சூத்ரேண அபியாசஸ்ய லோபஹ ஏவம் ஷிக் ச இதி பவதி அபியாசஹ நாம பூர்வோபியாசஹ ககா இதானிம் ஷிக் ச இத்யத்ர க ச இதி அஸ்தி ஆதேஷ பிரத்யயோஹோ இத்யனேன கிம் பவதி சிக்ஷ இதி பவதி சகாரஸ்ய ஷகாரஹ சிக்ஷ இதி பவதி इदानीं शिक्षा धातो शिक्षा इति धातुः अस्ति शिक्षा धातोः इदानीं पुनः लडादि कार्यं कृत्वा शिक्षते इति भवति इदानीम् अत्र प्रश्नः क्रियते शिक्षेर् जिज्ञासायाम् इति वार्तिके शिक्ष उपादाने इत्येव एकं धातुः अस्ति शिक्ष उपादाने इत्यस्य किमर्थं न स्वीकारः किमर्थं युष्माभिः शकलृ शक्तौ इति धातोः स्वीकारः इति प्रश्नः शकलृ शक्तौ इति इदानीं शिक्ष विद्योपादाने इति धातोः शिक्ष इत्यत्र क्षकारः अस्ति क्षकारस्य अकारः अस्ति अकारः अनुदात्त इत् अस्ति अनुदात्त इत् अस्ति चेत् आत्मनेपदं स्वयम् आगच्छेत् तत्र पृथक् अस्माभिः प्रयत्नः न कर्तव्यः पुनः वार्तिककारः प्रयत्नं करोति इति कारणेन अस्माभिः ज्ञायते न तु शिक्षा विद्योपादाने इति धातोः ग्रहणं परन्तु शकलृशक्तौ इत्यस्य धातोः एव ग्रहणम् इदानीम् अवगतं वा हा अग्रिम उदाहरणम् आशिषिनाथः आशिषिनाथः एतदपि वार्तिकं विद्यते नाथ धातोः आशीर्वादार्थे आत्मनेपदं भवति नाथ धातोः कः अर्थः धातुपाठे कः अर्थः विद्यते नाथ धातोः कः अर्थः अस्ति धातुपाठः अस्ति वा धातुपाठे नाथ धातोः कः अर्थः वर्णितः सूचितः नाथ धातोः याञ्च उपताप ऐश्वर्य ಆಶೀಹಿ ಆಶೀರ್ವಾದಾರ್ಥೆ. ಇದಾನೀಂ ಆಶಿಷಿ ನಾಥಃ, ಇದಾನೀಂ ಆಶಿಷಿ ನಾಥಃ ಇತಿ ವಾರ್ತಿಕಂ ಕಿಂ ಕರೋತಿ. ಅತ್ರ ನಾತೃ ದಾತ, ಅತ್ರ ನಾತೃವ ನಾಥ, ನಾತೃ ನಾತೃ ಧಾತೋ ಚತ್ವಾರಃ ಅರ್ಥಾಃ ಸಮಭವಂತಿ. ಯೇಷು ಚತುರ್ಷು ಅರ್ಥೇಷು ಕೇವಲಂ ಆಶೀರ್ವಾದಾರ್ಥೇ ಆತ್ಮನೇಪದಂ ಭವತಿ ಇತಿ ಆಶಿಷಿನಾಥಃ ಇತಿ ವಾರ್ತಿಕಂ ಕಥಯತಿ. ಆಶಿಷ್ಯೇವ ಇತಿ ನಿಯಮಾರ್ಥಂ ವಾರ್ತಿಕಂ ಇತ್ಯುಕ್ತಂ. ಸರ್ಪಿಷೋ ನಾಥತೆ, ಸರ್ಪಿಹಿ ಇತ್ಯುಕ್ತೆ ಅತ್ರ ಆಜ್ಯಂ ಘೃತಂ. ಸರ್ಪಿಷೋ ನಾಥತೆ ಇತ್ಯುಕ್ತೆ ಸರ್ಪಿರ್ಮೇ ಸ್ಯಾತ್ ಇತಿ ಆಶಾಸ್ಥೆ ಇತ್ಯರ್ಥಃ. ಮೇ ಸರ್ಪಿಹಿ ಸ್ಯಾತ್ ಇತ್ಯುಕ್ತೆ ಹೋಮಾದಿ ಕಾರ್ಯಂ ಕರ್ತುಂ. ಮೇ ಸರ್ಪಿಹಿ ಸ್ಯಾತ್ ಇತಿ ಆಶೀರ್ ಅಥವಾ ತೇ ಸರ್ಪಿಹಿ ಸ್ಯಾತ್ ಮೇ ಸರ್ಪಿಹಿ ಸ್ಯಾತ್ ಇತ್ಯಾದಿ ಆಶೀರ್ವಾದಾತ್ಮಕ ಕಥನಮೇವ ಕಿಂ ಅತ್ರ ಕಥನೇ ಇವ ಆತ್ಮನೇಪದಿ ಭವತಿ. ಸರ್ಪಿಷಿ ನಾ ಸರ್ಪಿಷ ಸಾರಿ ಸರ್ಪಿಷಃ ನಾಥತೆ ಇತಿ ಉದಾಹರಣಂ. ತದಾನೀಂ ಅತ್ರ ಅಗ್ರಿಮ ಉದಾಹರಣಮಸ್ತಿ. ಕಥಂ ನಾಥಸೆ ಕಿಮು ಪತಿಂ ನ ಭೂಭೃತಾಂ ಇತಿ ಅತ್ರ ಅಸ್ತಿ. ಪ್ರಾಯಃ ಏತತ್ ಕುಮಾರ ಸಂಭವೇ ಮಹಾಕಾವ್ಯ ಅಸ್ತಿ ಅಥವಾ ಕಿರಾತಾರ್ಜುನೇವ ಕುಮಾರ ಸಂಭವೇ ಇತಿ ಮನ್ಯತೆ. ಅತ್ರ ಕುಮಾರ ಸಂಭವೇ ಇದಾನೀಂ ನಾಥಸೆ ಕಿಮು ಪತಿಂ ನ ಭೂಭೃತಾಂ. ತತ್ರ ಹಿಮಾಲಯಂ ಪ್ರತಿ ಗತ್ವಾ ಅತ್ರ ನಾರದಃ ಪ್ರಾಯಃ ಪೃಚ್ಛತಿ, ನಾರದಃ ವಾ ಅನ್ಯಃ ಪೃಚ್ಛತಿ ವಾ ಅಹಂ ನ ಜಾನಾಮಿ, ಇದಾನೀಂ ಅಹಂ ನ ಸ್ಮರಾಮಿ. ತತ್ರ ತ್ವಂ ತು ಹಿಮಾಲಯಂ ಪ್ರತಿ, ತ್ವಂ ತು ಪರ್ವತಾನಾಂ ಸ್ವಾಮಿ ಅಸ್ತಿ ಅಸಿ, ತ್ವಂ ತು ಪರ್ವತಾನಾಂ ಸ್ವಾಮಿ ಅಸಿ. ತರ್ಹಿ ಕಿಮರ್ಥಂ ಕಿಮು ಪತಿನ್ನ ಭೂಭೃತಾಂ, ಭೂಭೃತಾಂ ಪತಿಹಿ, ಭೂಭೃತಾಂ ಪತಿಹಿ ಇತ್ಯುಕ್ತೆ ಓ ನಾಥಸೆ ಕಿಮು ಪತಿನ್ನ ಭೂಭೃತಾಂ. ಏಕನಿಮಿಷಂ ಕಿಂ ಅರ್ಥಂ ಅಸ್ಯ. ಪರ್ವತಾನ್ ತತ್ರ ಓಹೋ ಏತತ್ ಶಿವಸ್ಯ ಕೃತೆ ಉಚ್ಯತೆ ಇತಿ ಭಾತಿ. ಅತ್ರ ಪ್ರಸಂಗಃ ನ ಜ್ಞಾಯತೆ ಅತಃ ಸ್ವಾಮಿ ಸಮ್ಯಕ್ ನ ವಕ್ತುಂ ಶಕ್ಯತೆ. ನಾಥಸೆ ಕಿಮು ಪತಿಂ ನ ಭೂಭೃತಾಂ, ಭೂಭೃತಾಂ ಪತಿಹಿ ಕಃ ಹಿಮಾಲಯಃ, ಭೂಭೃತಾಂ ಪತಿನ್ ಕಿಮರ್ಥಂ ನ ನಾಥಸೆ. ಹಾ ಇದಾನೀಂ ಪರ್ವತಾನಾಂ ರಾಜ ಇತ್ಯುಕ್ತೆ ಪರ್ವತಾನಾಂ ಪತಿಹಿ, ಪರ್ವತಪತಿ ಸಮೀಪೆ ಕಿಮರ್ಥಂ ನ ನಾಥಸೆ. ಅತ್ರ ನಾಥ ಧಾತುಃ ನಾಥ ಧಾತೋಃ ಪ್ರಯೋಗಃ ಅಸ್ತಿ. ಇದಾನೀಂ ಆಶಿಷ ಅರ್ಥೇ ಏವ ಪ್ರಯೋಗಃ ಅಸ್ತಿ. ಏಕನಿಮಿಷಂ ವಿಜಯಲಕ್ಷ್ಮೀ ನಾನು ಗಿರಿಜಾಮಾಮಿ ವಿಜಯಲಕ್ಷ್ಮಿ ಮಾಮಿ ಟ್ರೈ ಪಣಿಂದಿರ್ಕಾ ಬಿಡ್ರಿ ಜಸ್ಟ್ ಅಂದ ಎಸ್ ಎಂ ಎಸ್ ಅನ್ಪ್ರಲ್ಲ ಅವಳಕ್ಕೆ. ಇದಾನೀಂ ಅತ್ರ ನಾಥಸೆ ಕಿಮು ಪತಿಂ ನ ಭೂಭೃತಾಂ. किमु इति अत्र यद्यपि आशीर्वादार्थः आशिषार्थः अस्ति आशिषार्थः अस्ति तथापि किमर्थम् आत्मने अत्र आशीर्वादार्थः नास्ति या 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 इत्युक्ते नाकसे इत्यत्र या यातनार्थः अस्ति एवम् अत्र आशीर्वादार्थः नास्ति न याचसे इत्यर्थः कुत्र अस्ति तत् ओ बालमरम भूभृतां पतिं किमु न नाचसे न याचसे इत्यर्थः एवम् अत्र आशीरर्थः नास्ति कथम् आत्मनेपदम् आगतम् इति प्रश्नः तद् कथं नाचसे किमु पतिं न भूभृताम् इत्यत्र आत्मनेपदं कथम् आगतं तदा अस्मिन् तदा उच्यते नाथसे इति पाठ्यम् अत्र नाथसे इति यद्यपि काव्यप्रयोगे अस्ति नाथसे इति स्वीकर्तुं न योग्यं नाथसे इत्येव स्वीकर्तव्यं न तु नाथसे इति इत्येव उच्यते एवम् एतादृशप्रश्नाः अवश्यं परीक्षायाम् आगच्छन्ति नाथसे किमु पतिं न भूभृताम् इति प्रयोगं समर्थयत इति तदा अस्माभिः किम् एतत् सूत्रानुसारेण वार्तिकानुसारेण किम् आगन्तव्यमासीत् किमर्थमत्र एतादृशप्रयोगः अस्ति समाधानं किं प्रश्नः कः इत्यसर्वम् उपपाद्य एव अत्र लेखनीयम् हरतेर् किमस्ति तत्र तद् मम प्रिण्ट् गतं तत्र हरतेर्गततार्चील्ये हा हरतेर्गततार्चील्ये हा हरतेर्गततार्चील्ये हृधातोः अत्र तार्चील्यार्थे तार्चील्यार्थ इत्युक्ते कृदन्ते तत् तद्धर्म तत् पूर्वकृदन्ते तद्धर्म तत्साधुकारी इत्यादि पाठः अभवत् इति मन्ये पूर्वकृदन्ते वा उत्तरकृदन्ते तद्धर्म तत्साधुकारी तत्शीलः तद्धर्म तत्साधुकारी इत्युक्ते तदेव शीलं यस्य इदानीं गमनं शीलं यस्य इत्युक्ते सः गमनमेव तस्य कार्यं किमपि न खादनमेव तस्य कार्यं तादृशजनस्य ताच्छील्यम् इति उच्यते स्वभावस्य अनुसरणम् इदानीं हरतेर्गतताच्छील्ये इत्यत्र अत्र गतम् इत्युक्ते गततार्चील्ये पैतृकम् अश्व उदाहरणं दृष्ट्वा पुनः आगच्छामः पैतृकम् अश्व अनुहरन्ते इति अस्ति पैतृकम् इत्युक्ते पितुः सम्बन्धि इत्यर्थः इदानीं पितुः व्यवहारं पितोः पैतृकम् इदानीं पैतृकम् इत्यस्य पैतृकं वृत्तम् अश्वाः स्वभावाद् अनुसरन्ति इत्यर्थः इदानीं किं भवति अत्र अनुहरन्ते हृ धातुः अस्ति अनुपसर्गः अस्ति अनुपसर्गयोगे अत्र हृ धातोः गततार्चील्यार्थः भवति गततार्चील्यार्थः भवति एवं अत्र वस्तुतः हृ इत्युक्ते हृ हरणे धातुः उभयपदि अस्ति. इदानीं गतताच्छील्यर्थे इमं एतद् वार्तिकानुसारेण केवलम् आत्मनेपदि भवति. इदानीं पैतृकमश्वा अनुहरन्ते अश्वाः इत्युक्ते अश्वाः वयं जानीमः. पैतृकम् इत्युक्ते तेषां पितुः स्वभावं व्यवहारम् अनुसरन्ति इत्यर्थः. पैतृकम् इत्युक्ते पैतृकं वृत्तं, वृत्तं नाम व्यवहारः, व्यवहारः. अश्वाः किं कुर्वन्ति इति प्रश्नः. अश्वाः पैतृकं पितुः, पैतृकं पितुः व्यवहारं, व्यवहारं वा वृत्तं, वृत्तम् इत्युक्ते व्यवहारं, व्यवहारस्य अनुहरन्ते, अनुसरन्ति इत्यर्थः. अत्र हृदातोः उभयपदित्वम् अस्ति, केवलम् आत्मनेपदित्वं भवति, न तु उभयपदित्वम् इति अनेन वार्तिकेन विशेषेण ज्ञायते. मातृकं गावः. मातृकम् इत्युक्ते अत्र मातृकम् अनुहरन्ते गावः. पैतृकम् अश्वा अनुहरन्ते, मातृकम् अनुहरन्ते गावः. मातुः व्यवहारं गावः अनुसरणं कुर्वन्ति इत्यर्थः. अनुसरन् अनुस अत्र अनुसरणं कस्य इत्युक्ते अनुसरणं नाम गततात्शील्यम्. अनुसरणमेव तत् तेषां कार्यम्. अनुहरन्ते इति धातुः हृ धातोः हृ हरणे इति यद्यपि अर्थः अस्ति, अनु उपसर्गयोगे अनुसरणम् इत्यर्थः अर्थं प्राप्नोति. अनुसरणं नाम अत्र गततात्शील्यार्थं यद्यत्ते कुर्वन् पितरः वा मातरः वा यद्यत् कुर्वन्ति तदेव अस्माकं कार्यम् इति तेषाम् एवं तात्शील्यार्थः सम्पन्नः. तादृश समये हृदातोः ताच्छील्यार्थे एवम् एतादृश आत्मनेपदं भवति. इदानीं पितुर्मातुश्च गतं प्रकारं सततं परिशीलयन्ति इत्यर्थः. ओ एवम् अत्र दत्तं पितुः मातुः गतं प्रकारं. गतम् इत्युक्ते गतं प्रकारम् इत्युक्ते गतं नाम प्रकारं, प्रकारं नाम गमनं, चेष्टादिकं, सर्वं चेष्टादिकं परिशीलयन्ति इत्यर्थः. ताच्छील्ये किं मातुरनुहरति. इदानीं ताच्छील्यशब्दस्य ग्रहणं हरतेर्गतताच्छील्ये इति ताच्छील्यशब्दस्य ग्रहणं किमर्थम् इति प्रश्नः. तत्र यदि ताच्छीलशब्दः न भवति मातुरनुहरति इत्युक्ते मातुः अनुसरणं करोति इत्यस्मिन् अर्थे अपि अत्र केवलं मातुः अनुहरति इत्यत्र केवलम् एकवारम् अनुसरणम् अस्ति. तादृश प्रयोगे अपि कदाचित् आत्मनेपदि स्यात्, तत् अनिष्टप्रयोगः, असाधुप्रयोगः, अतः अस्माभिः न इष्टः. अतः उच्यते ताच्छील्ये इति शब्दम् अस्माभिः अवश्यं स्थापनीयं, सूत्रे अवश्यं भवितव्यम् इति वार्तिकारः वदति, कौमुदीकारः वदति. किरतेर् हा सोलुङ्ग आमा गतताच्छील्ये गमनं गतताच्छील्ये भवितव्यम्. ಯಾವುದೋ ಈ ಆರ್ಥಿಕದ ಹಾಂ ಹ್ಞೂ ಅದು ನನ್ನ ಹತ್ರ ವಾ ಆ ವಿಚಾರ ಮಾಡಿ ಹೇಳ್ತೀನಿ ನಾನು ಈ ನಾನು ಮಹಾಭಾಷ್ಯದಲ್ಲೋ ಇದರಲ್ಲೋ ಅದ್ರ ಕೆಳಗಡೆ ಕೊಟ್ಟಿದ್ದಾರೆ ಹಂಗೆ ತಗೊಂಬಿಡೋದು ಅಂತ ಏನು ವಿಚಾರ ಮಾಡಲಿಲ್ಲ. ಸರಿ, ನಾವು ವಿಚಾರ ಮಾಡಿ ಮುಂದಿನ ಕ್ಲಾಸಲ್ಲಿ ಹೇಳ್ತೀನಿ. ಹಾಂ, ಕಿರತೆ ಇಕೋ ತುಂಬ ಇದೆ, ಶಬ್ದ ತುಂಬ ಇದೆ, ಬ್ಯಾಕ್ಗ್ರೌಂಡ್ ನಾಯ್ಸ್ ಎಲ್ಲದನ್ನು ಮ್ಯೂಟ್ ಮಾಡಿಬಿಡ್ತೀನಿ. ಹಾಂ, ಕಿರತೆಯರ್ ಹರ್ಷ ಜೀವಿಕಾ ಆಕುಲಯಾಕರಣಯೋಶಿತಿ ವಾಚ್ಯಂ. ಹಾಂ, ಹರ್ಷ ಜೀವಿಕಾ ಕುಲಯಾಕರಣೆ ಕರಣೇಶು, ಓಕೆ, ಕುಲಯಾಕರಣೇಶು ಕೃ ಧಾತೋ ಅತ್ರ ಅತ್ರ ಕೃ ಇತಿ ಧಾತು ಅಸ್ತಿ. ಕೃ ಇತಿ ದೀರ್ಘ ಲೃಕಾರ, ಸಾರಿ, ಋಕಾರ. ಕೃ ಧಾತು ವಿಕ್ಷೇಪೆ, ಕೃ ವಿಕ್ಷೇಪೆ ಇತಿ ಅರ್ಥೇ ಅಸ್ತಿ. ಇದಾನಿಂ ಕೃ ವಿಕ್ಷೇಪೆ ಇತ್ಯಸ್ಮಾತ್ ಧಾತೋ ಹರ್ಷ ಜೀವಿಕಾ ಕುಲಯಾಕರಣ ಅರ್ಥೇ ಆತ್ಮನೇಪದಂ ಭವತಿ. ಇದಾನಿಂ ಉದಾಹರಣಂ ಪಶ್ಯಾಮಃ. ಹರ್ಷಾದಯೋ ವಿಷಯಾಃ ತತ್ರ ಅತ್ರ ಹರ್ಷಃ ವಿಕ್ಷೇಪಸ್ಯ ಕಾರಣಂ ಭವತಿ. ವಿಕ್ಷೇಪಃ ನಾಮ ಎಸೆಯದು. ಕೃ ಧಾತೋ ವಿಕ್ಷೇಪಾರ್ಥಕಸ್ಯ ಹರ್ಷಾದಯೋ ವಿಷಯಃ. ಏತತ್ ಕಿಂಚಿತ್ ಅಗ್ರಿಮಕಕ್ಷಾಯಾಂ ಪಠಾಮಃ. तत्र कृ धातोः किञ्चित् विशेषः अस्ति. अहं तत्र कृ विक्षेपे इति धातुः अस्ति, तत्र सुडागमः इत्यादि भवति. एतद् अग्रिमकक्षायां पठामः. किञ्चित् ममैव सन्देहः समुत्पन्नः. इदानीम् एतावत्पर्यन्तमेव अधीतम्.